इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम्। प्रवाचकः ललितमोहनः तिवारी। आदौ मुख्य वार्ताः। नवदिल्ल्यां भारत इण्डोनेशिया देशयोः संयुक्तायोगस्य उपवेशनं सम्पन्नं। द्वैपाक्षिक वार्तायां उभौ पक्षौ सामरिक सहभागित्वं सुदृढीकरणाय सहमतौ अभवताम्। गृहमन्त्रिणा अमितशाहेन अन्ताराष्ट्रियसीमायां वित्तीयसम्पत्तिव्यवहारेषु सूक्ष्मनिरीक्षणाय आहूतम्। CBSE अद्य मध्यरात्रौ द्वादशीकक्षायाः पुनर्मूल्याङ्कनाय आवेदनस्य वेबफलकं समापयिष्यति। राष्ट्रियपुरस्कारविजेता मलयालम् अभिनेता सलीमकुमारः कोच्चिनगरे दिवंगतः। आगामी द्वित्रिदिनेषु सम्पूर्णे देशे व्यापकवृष्टिः भविष्यति इति IMD इत्यनेन पूर्वानुमानं प्रकटितमस्ति। अपि च भारतीयमल्लक्रीडकाः मंगोलियायाः उलान्बटार ओपन क्रीडायां भारतस्य कृते द्वे स्वर्णपदके द्वे कांस्यपदके च विजितवन्तः। अथ वार्ताः विस्तरेण। भारत इण्डोनेशिया देशयोः संयुक्तायोगस्य उपवेशनम् अद्य नवदिल्लीनगरे सम्पन्नम्। विदेशमन्त्री डॉ एस जयशंकरः तथा तस्य इण्डोनेशिया देशीयः समकक्षीयः सुगियोनो इत्येषः च उपवेशनस्यास्य सहाध्यक्षतां कृतवन्तौ। सामाजिक माध्यमे प्रकाशिते सन्देशे डॉ जयशंकरः उक्तवान् यत् विगतेषु वर्षेषु उभयो देशयो मध्ये व्यापक रणनीतिक सहभागिता सुदृढा अभवत्। तेनोक्तं यत् राजनैतिक रक्षा सुरक्षा सामुद्रिक नौवहन वाणिज्य वित्तीय प्रौद्योगिकी स्वास्थ्य औषध निर्माण उर्वरक महत्वपूर्ण खनिज क्षेत्रेषु तथा पर्यटन शिक्षण एवं सांस्कृतिक सहयोगादिषु विषयेषु महत्वपूर्णा चर्चा अभवत्। उभौ नेतारौ क्षेत्रीय घटनाक्रमान् बहुपक्षीय समन्वयस्य संवर्धनं तथा भारत आसियान सम्बन्धानां सुदृढीकरणे अपि स्वविचाराणाम् आदान प्रदानम् अकुरुताम्। इतः पूर्वम् उद्घाटनभाषणे डॉ जयशंकरः अवदत् यत् उभयो देशयो मध्ये संयुक्तायोगस्य उपवेशनमिदं चतुर्वर्षानन्तरम् आयोजितम् अस्ति। एतत् स्वीकरणीयं यत् अस्मिन् समये द्विपक्षीयसम्बन्धेषु महत्वपूर्णा प्रगतिः अभवत्। तेन अग्रे उक्तं यत् गतवर्षे भारत इण्डोनेशिया देशौ उभौ राजनैतिकसम्बन्धानां स्थापनायाः पञ्चसप्ततिवर्षाणां पूर्तेः उत्सवं सम्यक् आचरितवन्तौ। गृहमन्त्री अमितशाह अन्ताराष्ट्रिय सीमासु वित्तीयव्यवहाराणां भवननिर्माणस्य तथा सम्पत्तीनां च क्रयणस्य विक्रयणस्य च विषये कठोरपर्यवेक्षणस्य पालनम् आहूतवान्। एषः निर्देशः तेन BSF त्रिपुरा सीमा मुख्यालये पूर्वोत्तरराज्यस्य सीमवर्तिक्षेत्राणां सम्बन्धे आयोजितायां सभायां प्रदत्तः। गृहमन्त्री गतपञ्चवर्षाणां भूमिलेखानां परीक्षणं कारयितुमपि निर्दिष्टवान्। शीर्षाः उक्तवान् यत् सीमवर्ती जनपदेषु वित्तीयानुशासनस्य सुनिश्चितीकरणं राज्यसर्वकाराणां दायित्वमपि अस्ति। उपवेशने अस्य विषयस्य उपरि विशेषतया बलं दत्तं यत् नरेन्द्रमोदिनः नेतृत्वे केन्द्रप्रशासनम् अन्ताराष्ट्रियसीमासु उच्चतमस्तरस्य सुरक्षां सुनिश्चेतुं दृढसङ्कल्पितम् अस्ति, तथा च सीमवर्तिक्षेत्राणां समग्रविकासाय सुरक्षायै च केन्द्रीयराज्यविभागानां मध्ये सुदृढसमन्वयस्य संवर्धनं करोति। अस्मिन् उपवेशने माणिकशाह मुख्यसचिव JK सिन्हा अन्ये च वरिष्ठाधिकारिणः उपस्थिता आसन्। तथैव सीमवर्तिषु सर्वेषाम् अष्टजनपदानां जनपदाधिकारिणः आरक्षि अधीक्षकाः च अपि उपस्थिताः आसन्। संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन AIR चलदूरभाषीयतन्त्रांशे अपि उपलब्धो भविष्यति। द्वादशीकक्षायाः परीक्षापरिणामस्य प्रकाशनानन्तरं सम्बन्धितविषयाणां परीक्षणाय उत्तरपुस्तिकानां पुनर्मूल्याङ्कनाय च अन्तर्जालीयमाध्यमेन आवेदनपत्राणां प्रेषणस्य अद्य अन्तिमा तिथिः अस्ति। केन्द्रीयमाध्यमिकशिक्षापरिषद् सामाजिकमाध्यमेषु प्रकाशिते एकस्मिन् सन्देशे उक्तवान् यत् वेबफलकं मध्यरात्रिपर्यन्तम् उद्घाटितः भविष्यति। परिषदा छात्रेभ्यः अनुरोधः कृतः यत् ते अन्तिमतिथेः पूर्वमेव स्व आवेदनपत्राणि पूरयित्वा प्रेषयेयुः। राष्ट्रीय पुरस्कार विजेता मलयालम चलचित्राभिनेता सलीम कुमारः ह्यः कोचीनगरे दिवंगतः। तस्य एकस्मिन् निजी चिकित्सालये उपचारः प्रचलति स्म। सः 57 वर्षीयः आसीत्। श्रीकुमारः गतरात्रौ प्रायः पादोन 11 दिवंगतः। प्रारम्भे दूरदर्शन हास्य कार्यक्रमेण अवधानं प्राप्तः श्री सलीम कुमारः 96-99 वर्षे सिद्दीकी शमीर इत्यनेन निर्दिष्टं ईष्टमानु नूरुवट्टम् इति चलचित्रस्य माध्यमेन चलचित्रजगति प्रविष्टवान्। प्रधानमन्त्रिणा नरेन्द्रमोदिना अभिनेतुः सलीम कुमारस्य निधने दुःखं प्रकटितम्। भारतीय ऋतुविज्ञानविभागेन दक्षिणपश्चिम प्रावृट्टकालस्य आगमनेन अग्रिमे द्वित्रिषु दिनेषु सम्पूर्णे देशे तीव्रवृष्टेः पूर्वानुमानं प्रकटितम्। उत्तरमध्यभारतस्य केषुचित् भागेषु उष्णतरङ्गस्य स्थितिः अपि अनुवर्तते। एतदतिरिच्य आगामिषु चतुर्षु दिनेषु दिल्ली, पंजाब, हरियाणा, चण्डीगढ़, पश्चिमराजस्थान, तटीय आंध्रप्रदेश इत्येतेषु प्रदेशेषु उष्णतरङ्गस्य स्थितिः भविष्यति इति ऋतुविज्ञानविभागेन पूर्वानुमानितम्। उत्तरपश्चिमभारते, मध्यभारते च आगामिषु त्रिषु दिनेषु अधिकतमं तापमानं 2-6 डिग्री सेल्सियस् पर्यन्तं भवितुं शक्नोति। तेलुगुदेशं पार्टीति दलस्य राष्ट्रियाध्यक्षेण एन चन्द्रबाबू नायडुवर्येण आगामि जून मासस्य 18 दिनाङ्के राज्यसभानिर्वाचनाय स्वकीयस्य दलस्य 3 प्रत्याशिनः घोषिताः। तेषु उद्योगपतिः सना सतीशः, शिक्षाविदभाष्यं रामकृष्णः तथा TTP सामाजिक माध्यम प्रकोष्ठस्य प्रमुखः चिन्तकयाला विजयः च सन्ति। अमेरिका ईरान देशयोः मध्ये संघर्षस्य 100 जातानि। फरवरी मासस्य अन्ते ईरान देशे अमेरिका इज़राइल देशाभ्यां कृतैः आक्रमणैः आरब्धः अयं संघर्षः अधुना विस्तृतक्षेत्रीय संकटे परिणतः जातः। अस्मात् संघर्षात् होर्मुज्जल सन्धि मध्ये सुरक्षित समुद्रयान परिवहनाय संकटम् उत्पन्नम्। अधुना लेबनान देशे पुनः संघर्षयुता स्थिति उत्पन्ना जाता। केन्द्रीय युवकार्याणां क्रीडामन्त्री डॉक्टर मनसुख मांडविया अद्य प्रातःकाले नवदिल्लीनगरे आयोजितस्य फिट इंडिया संडेज ऑन साइकिल इति अभियानस्य 77 संस्करणे सहभागित्वं कृतवान्। वार्ताहरैः सह वार्तालापं कुर्वन् असौ अवदत् यत् साइकिल इति द्विचक्रिकायानस्य संचालनात् पृथ्वी स्वच्छा भवति तथा च यातायात सम्बद्धस्य अवरोधस्य गंभीर समस्याया समाधानम् अपि प्राप्यते।
साइकिलिंग करने से आपकी हेल्थ अच्छी रहती है। साइकिलिंग से फ्यूल का बचत होता है। वर्तमान में ट्रैफिक की बहुत बड़ी समस्या है, उसका भी समाधान है, तो क्यों न हम साइकिलिंग करें। देश के नागरिकों में अपने हेल्थ के प्रति अवेयरनेस बढ़ी है। मोदी जी ने आधा घंटा रोज फिटनेस देने के लिए कहा है, तो ये फिटनेस का डोज आधा घंटा के लिए हम हमेशा साइकिलिंग करेंगे तो मैं मानता हूँ कि हमारी कई समस्या का समाधान होगा।
अभिनेता विक्रांत मैसी अपि फिट इंडिया संडेज ऑन साइकिल इति कार्यक्रमे सम्मिलितवान्। एतदभियानम् अद्वितीयम् इति वर्णितवान्। सः अवदत् यत् एषः उपक्रमः अधुना जनान्दोलनरूपं धारयति। अद्य विश्वखाद्यसुरक्षादिवसः आचर्यते। अस्य वर्षस्य विश्वखाद्यसुरक्षादिवसस्य विषयः अस्ति समाह्वानात् समाधानपर्यन्तं सर्वत्र सुरक्षितं भोजनम्। अयं दिवसः खाद्यसुरक्षाया अधिकाररूपेण तथा सामूहिकदायित्वरूपेण जागरूकतां वर्धयितुं सशक्तम् अवसरं प्रददाति। स्वास्थ्य परिवार कल्याण मंत्री जगत प्रकाश नड्डा स्वस्थ भविष्याय सुरक्षित स्वच्छ भोजनाय च भारत प्रशासनिक प्रतिबद्धतां पुनरुच्चारितवान्। अस्मिन् अवसरे असौ सामाजिक माध्यमेषु प्रकाशिते सन्देशे उत्तमम् आहारं स्वीकर्तुं तथा च आत्मनिर्भर भारतस्य निर्माणे योगदानं दातुं जनेभ्यः आहूतवान्। नवचण्डीगढ़नगरे आयोक्ष्यमाणे निकष क्रिकेट क्रीडायाः द्वितीये दिने भारतीय दलेन अफगानिस्तान दलस्य सम्मुखे 8 हानिपुरस्सरं 64-500 धावनांकान् समर्ज्य प्रथमा चक्रीया क्रीडा घोषिता। भारतीय मल्लक्रीडकाः मंगोलियायाः उलान बटार ओपन क्रीडायां भारतस्य कृते 2 स्वर्णपदके 2 कांस्यपदके च विजितवन्तः। इति वार्ताः।